अथ चतुर्थः पादः। पादशतस्य सङ्ख्यादेर्वीप्सायां वुन्लोपश्च दण्डव्यवसर्गयोश्च स्थूलादिभ्यः प्रकारवचनेकन् अनत्यन्तगतौक्तात् न सामि वचने बृहत्या आच्छादने अषडक्षाशितङ्ग्वलं कर्मालं पुरुषाद्युत्तरपदात्खः विभाषाञ्चेरदिक् स्त्रियां जात्यन्ताच्छ बन्धुनि स्थानान्ताद्विभाषासस्थाने नेति चेत् किमेत्तिङव्ययघादां वद्रव्यप्रकर्षे अमुचच्छन्दसि अनुगादिनष्ठक् न च स्त्रियामयि अणिनुणः विसारिणो मत्स्ये सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच द्वित्रिचतुर्भ्यः सुच एकस्य सकृच्च विभाषाबहोर्धाविप्रकृष्टकाले तत्प्रकृतवचने मयट् समूहवच्च बहुषु अनन्तावसथेतिह भेषजान्यः देवतान्तात्तादर्थ्ये यत् पादार्घाभ्याञ्च अतिथेर्ण्यः देवात्तल अवेः कः यावादिभ्यः कन् लोहितान्मणौ वर्णे चानित्ये रक्ते कालाच्च विनयादिभ्यष्ठक् वाचो व्याहृतार्थायां तद्युक्तात् कर्मणोन् ओषधेरजातौ प्रज्ञादिभ्यश्च मृदस्तिकन् सस्नौ प्रशंसायां वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि बह्वल्पार्थाच्छस्कारकादन्यतरस्यां सङ्ख्यैकवचनाच्च वीप्सायां प्रतियोगे पञ्चम्यास्तसि हि अपादाने चाहीयर्होः अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः हीयमानपापयोगाच्च षष्ठ्याव्याश्रये रोगाच्चापनयने अभूततद्भावे क्रुभ्वस्ति योगे सम्पद्यकर्तरिच्विः अरुर्मनश्चक्षुश्चेतोरहो रजसां लोपश्च विभाषासातिकार्त्स्न्ये अभिविधौ सम्पदा च तदधीनवचने देयेत्रा च देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीया सप्तम्योर्बहुलम् अव्यक्तानुकरणाद्व्यजवरार्धादनिटौडाच् कृयो द्वितीयतृतीयशम्बबीजात्कृशौ सङ्ख्यायाश्च गुणान्तायाः समयाच्च यापनायाम् सपत्रनिष्पत्रादतिव्यथने निष्कुलान्निष्कोषणे सुखप्रियादानुलोम्ये दुःखात्प्रातिलोम्ये शूलात्पाके सत्यादशपथे मद्रात्परिवापणे समासान्ताः न पूजनात् किमः क्षेपे नयस्तत्पुरुषात् पथो विभाषा बहुव्रीहौ सङ्ख्येयेडजबहुगणात्। ऋक्पूरब्धूः पथामानक्षे अच् प्रत्यन्ववपूर्वात्सामलोम्नः अक्ष्णोदर्शनात् अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीव पदष्ठीव नक्तन्दिव रात्रिन्दिवाहर्दिव सरजस निःश्रेयस पुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुष जातोक्ष महोक्ष वृद्धोक्षोपशुनगोष्ठश्वाः ब्रह्महस्तिभ्यां वर्चसः अवसमन्धेभ्यस्तमसः श्वसो वसीयश्रेयसः अन्ववतप्ताद्रहसः प्रतेरुरसः सप्तमीस्थात् अनुगवमायामे द्विस्ता वा त्रिस्ता वा वेदिः उपसर्गादध्वनः तत्पुरुषस्याङ्गुले सङ्ख्याव्ययादेः अहः सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः अह्नोऽह्न एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्याञ्च राजाः सखिभ्यश्टच् गोरतद्धितलुकि अग्राख्यायामुरसः अनोष्मायः सरसां जातिसंज्ञयोः ग्रामकौटाभ्याञ्च तक्ष्णः अतेश्युनः उपमानादप्राणिषु उत्तरमृगपूर्वाच्च सक्थ्नः नावोद्विगोः अर्धाच्च खार्याः प्राचां द्वित्रिभ्यामञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्यामन्यतरस्यां द्वन्द्वाच्युदशहान्तात् समाहारे अव्ययी भावे शरत्प्रभृतिभ्यः अनश्च नपुंसकादन्यतरस्यां नदीपौर्णमास्याग्रहायणीभ्यः झयः गिरेश्च सेनकस्य बहुव्रीहौ सख्यक्ष्णोः स्वाङ्गात् षच् अङ्गुलेर्दारुणि द्वित्रिभ्यांशमूर्ध्नः अपूरणीप्रमाण्योः अन्तर्बहिर्भ्याञ्च लोम्नः ऐनासिकायाः संज्ञायां न सञ्चास्थूलात् उपसर्गाच्च सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः नैदुःसुभ्यो हलिसख्योरन्यतरस्यां नित्यमसिच् प्रजामेधयोः बहुप्रजाश्छन्दसि धर्मादनिच् केवलात् जम्भासुहरिततृणसोमेभ्यः दक्षिणेर्मालुब्धयोगे इच्कर्मव्यतिहारे द्विदण्ड्यादिभ्यश्च प्रसंभ्यां जानुनोर्ज्ञुः ऊर्ध्वाद्विभाषा ऊधसोनं धनुषश्च वासंज्ञायां जायायानि गन्धस्येदुत्पूतिसुसुरभिभ्यः अल्पाख्यायाम् उपमानाच्च पादस्य लोपो हस्त्यादिभ्यः कुम्भपदीषु च सङ्ख्यासु पूर्वस्य वयसि दन्तस्य दतृ छन्दसि च स्त्रियां संज्ञायां विभाषाश्यावारोकाभ्याम् अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ककुदस्यावस्थायां लोपः त्रिककुत्पर्वते उद्भिभ्यां काकुदस्य पूर्णाद्विभाषा सुहृद्दुर्हृदौ मित्रामित्रयोः उरः प्रभृतिभ्यः कप इनस्त्रियां नद्रुतश्च शेषाद्विभाषा न संज्ञायाम् ईयसश्च वन्दिते भ्रातुः ऋतश्छन्दसि नाडीतन्त्र्योस्वाङ्गे निष्प्रवाणिश्च पादशतस्य तत्प्रकृतवृकज्येष्ठाभ्यां सपत्रान्ववतप्तात् खार्यानैदुःसुभ्यो वयसि विंशतिः इति चतुर्थः पादः इति पञ्चमोऽध्यायः।